अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्यः वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना राजस्थानस्य बांसवाड़ा क्षेत्रे 1.22 लक्षकोटि रूप्यकाणां विकास परियोजनानां उद्घाटनं शिलान्यासश्च कृतः। प्रधानमन्त्रिणा नरेन्द्र मोदिना ग्रेटर नोएडा इत्यत्र उत्तर प्रदेश अन्ताराष्ट्रिय व्यापार प्रदर्शिन्याः उद्घाटनावसरे वैश्विक विघ्नावस्थानाम् अनिश्चिततानां सत्वपि भारतस्य विकासः उल्लेखनीयः अस्ति इति उक्तम्। भारतं रेल आधारित मोबाइल लॉन्चर सिस्टम इति मध्यम परिधेः अग्नि प्राइम मिसाइल इति प्रक्षेपास्त्रस्य सफलतया परीक्षणम् अकरोत्। अपि च बीसीसीआई इत्यनेन एशिया कप क्रीडाकाले अनुचित कार्याचरण विषये पाकिस्तानस्य क्रिकेट क्रीडकौ हरीश राउफ साहिबजादा फरहान इत्यमु विरुद्ध्य आईसीसी इत्यत्र परिवादः दत्तः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य राजस्थाने 1.22 लक्षकोटिभ्यः अधिक मूल्यानाम् अनेक विकास परियोजनानाम् आधारशिला स्थापनम् उद्घाटनम् च अकरोत्। प्रधानमन्त्री अद्य राजस्थाने 1.22 लक्षकोटिभ्यः अधिक मूल्यानाम् अनेक विकास परियोजनानाम् आधारशिला स्थापनम् उद्घाटनम् च अकरोत्। सः बांसवाड़ायां विकास परियोजनानाम् शिलान्यासम् उद्घाटनं च विहितवान्। माही बांसवाड़ा क्षेत्रे राजस्थान परमाणु विद्युत परियोजनायाः अन्तर्गतम् उन्नत सुरक्षा विशेषताभिः 700 मेगावाट क्षमताभिः सह 4 स्वदेशीयाः भारयुताः जल नाभिकीय अभिकारकाः अर्थात् जल रिएक्टर इति स्थापिताः, येन राज्ये विद्युतः उत्पादनं वर्धितम्।
आज राजस्थान, मध्य प्रदेश, आंध्र प्रदेश, कर्नाटका और महाराष्ट्र में 90,000 करोड़ रुपए से ज्यादा के बिजली प्रोजेक्ट शुरू हुए हैं। यहाँ राजस्थान में भी क्लीन एनर्जी प्रोजेक्ट और ट्रांसमिशन लाइन की आधारशिला रखी गई है। बांसवाड़ा में राजस्थान एटॉमिक पावर प्रोजेक्ट का शिलान्यास हुआ है। यहाँ सोलर एनर्जी प्रोजेक्ट का उद्घाटन भी हुआ है।
प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् वैश्विक विघ्नानाम् अनिश्चिततायाश्च सत्स्वपि भारतस्य विकासः उल्लेखनीयः एव अस्ति। अद्य प्रातः ग्रेटर नोएडा उपनगरे उत्तरप्रदेश अन्ताराष्ट्रिय व्यापार प्रदर्शिन्याः उद्घाटनं कुर्वन् श्रीमोदी अवदत् यत् व्यवधानेन देशस्य ध्यानं विचलितं न भवति, अतः देशः तस्याम् एव परिस्थित्यां नूतनाः दिशः नूतनान् च अवसरान् अन्विष्यति। एतेषां व्यवधानानां मध्ये अद्य भारतम् अग्रिम दशकेभ्यः आधारं सुदृढं कुर्वदस्ति। देशस्य संकल्पश्च अस्ति आत्मनिर्भर भारतस्य मन्त्रः इति सः अवदत्।
दुनिया में हो रही डिसरप्शन और अनसर्टेनिटी के बावजूद भारत की ग्रोथ आकर्षक है। डिसरप्शन हमें भटकाते नहीं, लेकिन हम उस परिस्थिति में से नई डायरेक्शन खोजते हैं, नई डायरेक्शन का मौका ढूंढते हैं। इसलिए इन डिसरप्शन के बीच आज भारत आने वाले दशकों की नींव मजबूत कर रहा है, और इसमें भी हमारा संकल्प है, हमारा मंत्र है आत्मनिर्भर भारत।
प्रधानमन्त्री अवदत् यत् सर्वकारः मेक इन इण्डिया इत्यत्र केन्द्रितः अस्ति। देशे चिप इत्यतः शिप इति पर्यन्तं निर्माण लक्ष्यम् अस्ति। श्रीमोदी उक्तवान् यत् भारतेन यूपीआई, आधारः, डिजिलॉकर, ओएनडीसी इत्यादयः मुक्तमञ्चाः निर्मिताः सन्ति, ये सर्वेभ्यः योजयन्ति, सर्वेभ्यः अवसरान् च यच्छन्ति।
फिनटेक सेक्टर की बहुत चर्चा है। इस फिनटेक सेक्टर की सबसे खास बात है कि इसने समावेशी विकास को, इंक्लूसिव डेवलपमेंट को बहुत ताकत दी है। भारत ने ऐसे ओपन प्लेटफॉर्म बनाए जो सबको साथ लेकर चलते हैं। यूपीआई, आधार, ये हर किसी को मौका दे रहे हैं, यानी प्लेटफॉर्म फॉर ऑल।
श्री मोदी अवदत् यत् अद्य सर्वकारस्य ई मार्केट प्लेस जेम इति फलकेन प्रायः 25 लक्षप्रायः विक्रेतारः सेवा प्रदातारश्च सर्वकाराय आपूर्तिं यच्छन्ति। भारतेन रैल आधारित जंगम प्रक्षेपण व्यवस्थायुतम् ईजीएस प्रैम मिसाइल इत्यस्य सफल प्रक्षेपणं कृतम्। प्रक्षेपणम् इदं 2000 किलोमीटर इति यावत् परिधिम् आच्छादयितुं शक्नोति। इदं विविधाभिः उन्नत विशेषताभिश्च युक्तम् अस्ति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। पेट्रोलियम प्राकृतिक वात मंत्री हरदीप सिंह पुरी अद्य अवदत् यत् भारतेन 20% जैव ईंधन सम्मिश्रणस्य लक्ष्यं षण्मासेभ्यः पूर्वमेव प्राप्तमिति। नवदिल्ल्यां विश्व हाइड्रोजन भारत शिखर सम्मेलनं संबोधयन् सः उल्लिखितवान् यत् 30-उत्तर-2000-तम-वर्षपर्यन्तं 50 लक्ष टन परिमितस्य हरित हाइड्रोजन इत्यस्य उत्पादन क्षमतां प्राप्तुं भारतस्य एकम् एव रक्षणात्मकं लक्ष्यमस्ति। श्री सिंहः इतोऽपि अवदत् यत् हरित हाइड्रोजन इति भविष्यस्य ईंधनमस्ति यत्र स्थानीय आग्रहः स्थानीय उत्पादनं स्थानीय उपभोगः च भवति तत्र सः सफलः भविष्यति।
ग्रीन हाइड्रोजन इज द फ्यूल ऑफ द फ्यूचर। ग्रीन हाइड्रोजन विल अल्टीमेटली सक्सीड where there is local demand, there is local production, and there is local consumption. And there are not many places in the world as uniquely qualified as India is to make that happen. We set ourselves a target of producing 5 million tons of green hydrogen annually by 2030, supported by strong policy frameworks and a significant financial outlay.
श्री सिंह उल्लिखितवान् यत् भारतस्य तैल वायु सार्वजनिक उपक्रमाः 30-उत्तर-2000-तम-वर्षपर्यन्तं 10 लक्ष टन परिमितस्य हरित हाइड्रोजन इत्यस्य स्थापनायाः योजनां घोषयन्ति। रक्षा मन्त्रालयेन हिन्दुस्तान एरोनॉटिक्स लिमिटेड इत्यनेन सह भारतीय वायुसेनायाः कृते 70 लघु युद्धविमानानां MK-1A इत्यस्य क्रयणार्थं 260 कोटि रूप्यकाणां क्रयणार्थं अनुबन्धः हस्ताक्षरितः यस्मिन् 68 युद्धविमानानि 29 युग्मसीटर विमानानि च सन्ति अपि च भारतीय वायुदलेन सम्बद्धानि उपकरणानि अपि सन्ति। एतेषां विमानानां वितरणं वर्षम् एकान्तरिक मध्यारभ्य षण्मासेषु समाप्स्यते। भाजपा इति दलेन अद्य केन्द्रीय मन्त्री धर्मेन्द्र प्रधानः अग्रिमाय बिहार विधानसभा निर्वाचनाय दलस्य निर्वाचन प्रभारी रूपेण नियुक्तः। दलं केन्द्रीय मन्त्री सी आर पाटिल इत्यमुम् अपि नियुक्तवत्। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव प्रसाद मौर्यः च निर्वाचनस्य सह प्रभारी रूपेण नियोजितः। रक्षामन्त्री राजनाथ सिंह अद्य नवदिल्ल्यां सेना मुख्यालये स्वच्छता एव सेवा स्वच्छता ही सेवा इति अभियानस्य भागत्वेन स्वच्छता कर्मचारिणां सम्मानं कृतवान्। अस्मिन् अवसरे श्री सिंह अवदत् यत् स्वच्छ भारत अभियानम् इति इदं देशस्य प्रत्येक जनं यावत् क्रान्तिरूपेण प्राप्तमस्ति तत् अद्भुतमस्ति। तस्य क्रान्तेः भागत्वेन अद्य राष्ट्रं स्वच्छता दिवसम् आचरति इति सः अवदत्। केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्री तथा भाजपा अध्यक्षः जेपी नड्डा नवदेहल्याम् अस्य वर्षस्य स्वच्छता ही सेवा इति अभियाने सम्मिलितो अभवत्। भारतीय क्रिकेट नियन्त्रण मण्डलेन पाकिस्तानस्य क्रिकेट क्रीडकयोः साहिब जादा फरहान हरिस रौफयोः विरोधे अधिकारिकतया परिवेदना पंजीकृता या अशिष्टतायाः विरोधे एशिया कप सुपर फोर क्रीडायाः समये विहितम्। भारतीय दलेन अस्मै दुर्व्यवहाराय कठोर क्रियान्वयनाय च याचितम्। अन्ते पुनरेकवारं मुख्याः वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना राजस्थानस्य बांसवाड़ा इति क्षेत्रे विकास परियोजनानां उद्घाटनं कृतम् इति वार्ताः।